इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका वन्दना कश्यपः। आदौ मुख्या वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य अवधानं दत्तं यत् भारतस्य द्रुतगत्या परिवर्त्यमानानाम् आकांक्षाणां कृते न केवलं कार्यसाधकस्य प्रत्युत नागरिक केन्द्रितस्य प्रशासनिक प्रतिरूपस्य आवश्यकता वर्तते इति। पश्चिम एशिया संघर्ष मध्ये जायमानस्य वैश्विक अशोधित तैलस्य आपूर्तो समागतायां बाधायां प्रशासनेन जून मासस्य 30 दिनांक पर्यन्तं प्रमुखेषु पेट्रो रसायन उत्पादेषु सीमा शुल्कं विमोचितम्। विगते वित्तीय वर्षे भारतस्य रक्षा निर्यातः 24.4 लाख 38,000 करोड़ रूप्यकाणां ऐतिहासिकं स्तरं प्राप्तवान्। पश्चिम बंगाल राज्यस्य मालदा मण्डले विशेष गहन पुनरीक्षण कार्ये संलग्नानां 7 न्यायिक अधिकारिणानां बन्धकर रूपेण निरोधस्य घटना निन्दनीया इति सर्वोच्च न्यायालयः अद्य अघोषयत्। पश्चिम बंगाल विधानसभा निर्वाचनाय द्वितीय चरणस्य नामांकन प्रक्रिया अद्य अधिसूचना आरब्धा। अपि च अद्य सायं इंडियन प्रीमियर लीग स्पर्धायां कोलकाता नाइट राइडर्स दलं सनराइजर्स हैदराबाद दलेन सह स्पर्धां करिष्यति। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य अवधानं दत्तं यत् भारतस्य द्रुतगत्या परिवर्त्यमानानाम् आकांक्षाणां कृते न केवलं कार्यसाधकस्य प्रत्युत नागरिक केन्द्रितस्य प्रशासनिक प्रतिरूपस्य आवश्यकता वर्तते इति। प्रधानमन्त्री ऐषमः कर्मयोगी साधना सप्ताह इत्याख्ये सम्बोधनपरे दृश्यांकन सम्बद्धे सन्देशे एतत् सर्वमपि उक्तवान्।
आज गवर्नेंस के जिस सिद्धांत को लेकर हम आगे बढ़ रहे हैं उसका मूल मंत्र है नागरिक देवो भव। इस मंत्र में समाहित भावना के साथ आज पब्लिक सर्विस को ज्यादा कैपेबल नागरिकों के लिए ज्यादा सेंसिटिव बनाने पर फोकस किया जा रहा है। अब शासन को सिटीजन सेंट्रिक बनाकर एक नई पहचान दी जा रही है।
जीवनस्य सुगमतायाः गुणवत्तायाः च परिष्कारः शासनस्य प्राथमिकः केन्द्रबिन्दु भवेत् इत्यपि प्रधानमन्त्री निगदितवान्। प्रौद्योगिक्याः महत्वं प्रतिपादयन् प्रधानमन्त्री विगतैका 10 वर्षेषु शासनस्य सेवा वितरणस्य अर्थव्यवस्थायाः अथ प्रशासकीय कार्येषु प्रौद्योगिक्याः गहन एकीकरणं प्रति सर्वान् इंगितवान्।
हमने गवर्नेंस और डिलीवरी से लेकर इकोनॉमी तक टेक रिवॉल्यूशन की ताकत देखी है। अब एआई की दस्तक के बाद ये बदलाव और तेज होने वाला है, इसलिए टेक्नोलॉजी को समझना और उसका सही उपयोग करना ये पब्लिक सर्विस का एक जरूरी हिस्सा बन चुका है। इसलिए एआई के क्षेत्र में कैपेसिटी बिल्डिंग और निरंतर लर्निंग को फैसिलिटेट करने के लिए काम हो रहा है। इसमें आप सभी की भागीदारी और सहभागिता दोनों बहुत महत्वपूर्ण है।
अवधातव्यम् अस्ति यत् अद्य प्रभृति एकसप्ताहाभ्यन्तरे कर्मयोगी साधना सप्ताह इत्याख्यः कार्यक्रमः आरब्धः। कार्मिक प्रशिक्षण विभागेन क्षमता निर्माण आयोगेन कर्मयोगी भारतेन च सामूहिक रूपेण अयम् कार्यक्रमः आयोज्यते। अस्य कार्यक्रमस्य उद्देश्यं सम्पूर्णे देशे नागरिक सेवानां क्षमतायां निष्पादनस्य कार्यक्षमतायाः च निर्माणम् इति। पश्चिम एशिया संघर्ष मध्ये जायमानस्य वैश्विक अशोधित तैलस्य आपूर्तौ समागतायां बाधायां प्रशासनेन जून मासस्य 30 दिनांक पर्यन्तं प्रमुखेषु पेट्रो रसायन उत्पादेषु सीमा शुल्कं विमोचितम्। वित्त मन्त्रालयः संसूचितं यत् देशीय उद्योगेषु आवश्यक पेट्रो रसायनानां उपलब्धां सुनिश्चितुम् अस्थायी उपायरूपेण एषः उपायः स्वीकृतः अस्ति। एतेन सम्बद्ध क्षेत्रेषु व्ययस्य भारः न्यूनी भवति, आपूर्ति स्थिरी भवति, उपयोभृक्तः आश्वस्ति च प्राप्यते इति मन्त्रालयः अवदत्। मन्त्रालयः एतदपि अवदत् यत् आहत्य 40 संख्याकानि वस्तूनि सीमाशुल्कात् मुक्तानि सन्ति इति। एतेषु मेथनॉल, अमोनिया, टोलून, स्टेरिन, डोक्लोरो मीथेन, विनाइल क्लोराइड, मोनोमर्स इत्येनानि सन्ति। विगते वित्तीय वर्षे भारतस्य रक्षा निर्यातः चतुर्विंशत्यधिक चतुःशतोत्तर अष्टत्रिंशत् सहस्र कोटि रूप्यकाणाम् ऐतिहासिकं स्तरं प्राप्तवान्। एषा वृद्धि गतवर्षस्य तुलनायां 62.66% अधिका अस्ति। रक्षामन्त्रालयानुसारम् अस्यां सफलतायां सार्वजनिकक्षेत्रस्य उपक्रमाणां सहभागिता 54.84% तथा च सर्वकारीयेतरक्षेत्रस्य योगदानं 45.16% वर्तते। एषा तीव्रा वृद्धि भारतीय रक्षा उत्पादानां वैश्विक स्वीकार्यतां तथा च अन्ताराष्ट्रिय आपूर्ति श्रृंखलासु भारतस्य सुदृढ स्थितिं प्रदर्शयति। रक्षामन्त्री राजनाथ सिंहः एताः उपलब्धिं श्लाघनीयम् उक्तवान् यत् भारतं रक्षा उपकरणानां निर्माणाय विश्वस्य प्रमुखं भवितुं वेगेन अग्रेसरति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। बंगालराज्यस्य मालदा मण्डले विशेष गहन पुनरीक्षण कार्ये संलग्नानां 7 न्यायिक अधिकारिणां बन्धक रूपेण निरोधस्य घटना निन्दनीया इति सर्वोच्च न्यायालयः अद्य अघोषयत्। न्यायालयः अस्याः घटनायाः स्वतः संज्ञानं स्वीकृत्य राज्य प्रशासनस्य तीव्राम् आलोचनां कृतवान्। मुख्य न्यायाधीशस्य सूर्यकान्तस्य नेतृत्वे पीठानेन राज्यस्य मुख्यः सचिवः आरक्षिमहानिदेशकः च आगामि 6 दिनांके आभासीय माध्यमे उपस्थितये आदिष्टाः। न्यायालयेन निर्वाचन आयोगः अस्मिन् विषये सीबीआई अथवा एनआईए माध्यमेन अन्वेषणं कर्तुम् अनुमतः, अपि च अधिकारिणां सूचनां सुनिश्चयाय देशस्य कुत्रचित् अपि केन्द्रीयबलानां याचनां कर्तुम् आयोगस्य स्वतन्त्रः अस्ति। पीठानेन टिप्पणी कृता यत् एषा घटना न्यायिक अधिकारिणां मनोबलम् अपाकर्तुं तथा निर्वाचनं प्रक्रिया बाधयितुं कृते सुनियोजित प्रयासः दृश्यते। पश्चिमबंगाल विधानसभा निर्वाचनाय द्वितीय चरणस्य नामांकन प्रक्रिया अद्य अधिसूचना आरब्धा। अस्मिन् चरणे अस्मिन् मासे 21 दिनांके 42 निर्वाचनक्षेत्रेषु मतदानं भविष्यति। अभ्यर्थिनः एप्रिल मासस्य प्रथम दिनांक पर्यन्तं स्वकीयं नामांकन पत्रं दातुं शक्नुवन्ति, येषां परीक्षणम् अनन्तरं भविष्यति। नाम प्रत्यावर्तनं कर्तुम् अन्तिमा तिथि अप्रिल मासस्य 13 दिनांकः अस्ति। अपरपक्षे असम केरल पुद्दुचेरी राज्येषु एकचरणीय मतदानस्य कृते प्रचार कार्यं तीव्रम् अभवत्। अद्य अस्माकं निर्वाचनक्षेत्रे विशेषे केरल राज्यस्य कोट्टायम मण्डलस्य कंजरपल्ली क्षेत्रस्य उपरि दृष्टिः अस्ति, यत्र चतुर्णां प्रमुखाभ्यर्थिनः मध्ये प्रबला स्पर्धा वर्तते। अद्य सायं इण्डियन प्रीमियर लीग स्पर्धायां कोलकाता नाइट राइडर्स दलं सनराइजर्स हैदराबाद दलेन सह स्पर्धां करिष्यति। एषा क्रीडा सायंकाले 7:30 आरप्स्यते। ह्यः रात्रौ दिल्ली कैपिटल्स दलेन लखनऊ सुपर जायंट्स दलं 6 पराजितम्। संसदीय कार्यमंत्री किरेन रिजिजू महोदयः अद्य राज्यसभाम् असूचयत् यत् महिला आरक्षण विधेयकस्य उपरि संविस्तरं चर्चायै संसदः कार्यचरणम् अद्य आरभ्य स्थगिता भविष्यति। सममेव च सप्ताहद्वयं त्रयस्य अनन्तरं पुनः प्रारप्स्यते। कांग्रेस दलस्य जयराम रमेश महोदयस्य प्रश्नस्य उत्तरं यच्छन् रिजिजू महोदयः उक्तवान् यत् सर्वकारेण अस्मिन् विषये 80% दलेभ्यः अधिकैः सह परामर्शः कृतः। तेन एतदपि स्पष्टीकृतं यत् सर्वकारः किमपि स्वयमेव निर्णयं न स्वीकरोति, अपि तु सर्वेषां दलानां साहाय्येन सर्वसम्मतिं निर्यातं प्रयत्नं करोति। अपरपक्षे राज्यसभायां विपक्षस्य नेता मल्लिकार्जुन खर्गे महोदयः अस्मिन् विषये सर्वदलीयोपवेशनम् आकारयितुं याचना कृतवान्, येन स्वकीयं मतम् उपस्थापयितुं शक्नुयुः। तेन उक्तं यत् कांग्रेसदलं महिला आरक्षणस्य विरुद्धं नास्ति इति वार्ताः।